एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली निगदति आर्थिकाभावस्य कारणेन चिकित्सालयं प्राप्तानां रोगिणाम् उपचारं विनैव प्रत्यावर्तनस्य स्थितिः समापनीया मोरङ्ग जनपदस्य कठरी स्थाने स्थापितायाः जीवन विकास सामुदायिक चिकित्सालय प्राविधिक शिक्षा संस्थायाः ह्य उद्घाटनं विदधानः प्रधानमन्त्री ओली चिकित्सालयेन रोगिणाम् आर्थिकावस्थापेक्षया रोगिणाम् उपचारस्य आवश्यकतां विचार्य चिकित्सा सेवा विधेयति प्रावोचत् प्रधानमन्त्री ओली देशस्य विकासाय समृद्धये च जनप्रतिनिधिभिः सर्जनशीलैः दूरदर्शिभिश्च भाव्यमिति उक्तवान् प्रधानमन्त्री ओली चिकित्सालयस्य क्षमतायाः विस्ताराय चिकित्सा महाविद्यालयस्य संचालनाय च सर्वकारेण यथासम्भवं सहयोगो विधास्यते इति प्रतिबद्धताम् अभिव्यनक् कार्यक्रमे चिकित्सालयस्य संचालकः प्रतिनिधिसभायाः सांसदश्च योगेन्द्र प्रसाद मण्डलः समुदाये विद्यमानानां विपन्नवर्गेभ्य सहजरूपेण गुणस्तरीयां चिकित्सा सेवां प्रदातुं चिकित्सालयः संचालितोऽस्ति इति अवदत् शतद्वयशय्यायुतः चिकित्सालयोऽयं द्वयोरब्जयोः रूप्यकाणां व्ययेन निर्मितोऽस्ति शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्तः भाषते अशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयं विद्यालय शिक्षा सम्बद्धं विधिं संशोधयितुम् एकीकर्तुं च निर्मितं विधेयकम् आगामिनः आषाढस्य पञ्चदश दिवसं यावत् प्रतिनिधिसभातः पारिति करिष्यते प्रारम्भिक बाल विकासस्य कृते संघीय सांसदानां सहकार्य समन्वय कारिणा समूहेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे शिक्षामन्त्री पन्तः शिक्षा विधेयके सर्वेषाम् उचितां याचनां सम्बोधयितुं कार्यं विधीयमानमस्ति इति अगदत् मन्त्री पन्तः शिक्षकाणां याचनां सम्बोधयितुं पदानां संयोजनस्य विद्यालयानां विद्यालययोः वा एकीकरणस्य च विषये कार्यं विधीयमानमस्ति इति अवोचत् सर्वकारस्य शिक्षकाणां च मध्ये विगत समये सम्भूता सहमति यथासम्भवं विधेयके समावेश्यते इति च शिक्षामन्त्री पन्तः प्रावोचत् सुदूरपश्चिम प्रदेशे कोरोना विषाणोः संक्रान्तानां जनानां संख्या त्रयोदश प्राप्ता अस्ति एन्टीजेन प्रविधिना विहितेन परीक्षणेन कैलाली जनपदस्य त्रिनगर सीमा प्रवेश बिन्दौ त्रिषु जनेषु बैतडी जनपदस्य झुलाघाट सीमा प्रवेश बिन्दौ च एकस्मिन् जने कोरोना विषाणोः संक्रमणं पुष्टीभूतम् आसीदिति प्रदेश स्वास्थ्य निर्देशनालयेन ज्ञापितं वर्तते एतत्पूर्वं विगतेषु त्रिषु दिनेषु नवषु जनेषु कोरोना संक्रमणं पुष्टीभूतम् आसीत् कोरोना विषाणुना संक्रान्ताः जनाः भारतदेशात् स्वगृहं प्रत्यागताः जनाः सन्ति प्रदेश स्वास्थ्य निर्देशनालयस्य प्रमुखः डॉ खगेन्द्र बम भारतदेशेन सह संयुक्त सीमसु कैलाली जनपदस्य त्रिनगर स्थाने कञ्चनपुरस्य गड्डाचौकी स्थाने बैतडी जनपदस्य झुलाघाट स्थाने दार्चुला जनपदस्य सीमक्षेत्रे च एन्टीजेन परीक्षणस्य व्यवस्था विहिता अस्ति इति अवदत् बाजुरा जनपदस्य बुढीगंगा नगरपालिकायाः षष्ठ ओडा क्षेत्रस्य बामका आपणे गत शुक्रवासरे नवदुर्गा भोजनावासगृहे पाचनेन्धनभाण्डस्य विस्फोटनेन सम्भूते अग्निदाहे पञ्चत्रिंशत् आपणानि दग्धानि सन्ति अग्निदाहेन पञ्चत्रिंशत् आपणानां क्षतेः विवरणं संकलितमस्ति इति जनपद प्रहरी कार्यालयस्य प्रहरी निरीक्षकः सूचनाधिकारी देवबहादुर चौधरी असूचयत् अग्निदाहेन आसन्नाष्टानां कोटीनां सप्तसप्ततिर्लक्ष पञ्चषष्टिः सहस्राणां च रूप्यकाणां क्षतिः सम्भूता अस्ति इति असौ असूचयत् अत्रान्तरे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री प्रसाद पाण्डेयः अग्निदाहस्य क्षतिः अनुगमनं विधाय सहयोगस्य पुनस्थापनायाः कृते च प्रयत्यते इति अवदत् त्रिभुवन राजपथस्य स्तरोन्नतेः कार्यम् अस्यैव ज्येष्ठमासस्य त्रिंशं दिवसं यावत् सञ्चाल्यमानमस्ति अस्यैव ज्येष्ठमासस्य दशमदिवसात् पञ्चविंशं दिवसं यावत् प्रतिदिनं षड्घण्टाः मार्गं पिधाय निर्माणकार्ये विधीयमानेऽपि कार्यस्य पूर्णतायाः अभावेन पुनः पञ्चानां दिनानां कृते मार्गपिधानस्य समयावधिः वर्धापितोऽस्ति इति नागढुङ्गा मुगलिन मार्गायोजनायाः पूर्वखण्डस्य प्रमुखः केशव ओझा असूचयत् निर्माणाधीनावस्थायां विद्यमानस्य अस्य मार्गखण्डस्य सुधाराय ज्येष्ठमासस्य दशमदिवसात् प्रातः सार्धदशवादनात् त्रिवादनं यावत् पिधाप्य मार्ग निर्माणेन सहैव सम्भारस्य कार्यमपि जायमानमस्ति। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ पत्राचार सेवायाः आधुनिकीकरणस्य आवश्यकतां दर्शयति। पत्राचार सेवा विभागेन ह्य विराटनगरे आयोजिते अन्तर्क्रिया कार्यक्रमे मन्त्री गुरुङ राणा शासनकाले स्थापितायाः पत्राचार सेवायाः आधुनिकीकरणं विधाय सेवा प्रवाहस्य सुचारू संचालनस्य विषये बलं प्रादात्। संचार सूचना प्रविधि मन्त्रालयस्य सचिवः राधिका अर्यालः पत्राचार सेवायाः विविधीकरणेन सहैव व्यावसायिकीकरणम् आवश्यकमस्तीति उक्तवती। परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा कथयति जनतायाः आवश्यकतायाः प्रत्यक्ष सम्बन्धस्य च सेवायाः कार्येष् राष्ट्रसेवक कर्मचारिभिः संवेदनशीलैर्भाव्यम्। पारपत्र विभागेन सुदूरपश्चिम प्रदेशस्य विभागस्य कर्मचारिणः लक्ष्यीकृत्य संचालिते अभिमुखीकरण कार्यक्रमे परराष्ट्र मन्त्री डाक्टर राणा पारपत्र प्रापणस्य विषयः अतः परम नागरिकाणाम् आधारभूताधिकारस्य विषयः सम्भूतोऽस्तीत्यतः अस्याः सेवायाः कर्मचारिभिः अतिरिक्त संवेदनशीलैर्भाव्यमिति बलं प्रदत्तवती। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी वैज्ञानिकेन आधारेण खाद्य स्वच्छतायाः सुनिश्चयनं करिष्यते इति उक्तवान् अस्ति। सप्तदशतमस्य राष्ट्रिय खाद्य स्वच्छता दिवसस्य अवसरे ह्य खाद्य प्रविधि गुण नियन्त्रण विभागेन काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री अधिकारी सप्तसप्ततौ एव जनपदेषु खाद्य प्रविधि गुण नियन्त्रण कार्यालयम् उद्घाट्य खाद्य स्वच्छता सम्पादयिष्यते इति अवदत्। विभागस्य महानिर्देशकः संजीव कुमार कर्णः आविष्यं खाद्यजन्यानां शतद्वयस्य रोगाणाम् उत्पत्तेः खाद्यान्नानां स्वच्छीकरणेन नियमनं सम्भवति इति अगदत्। पूर्व राष्ट्रपतिः विद्यादेवी भण्डारी परिवर्तनस्य अनुभवनत्वेन सबलार्थिक समृद्धेः अधिगमनम् अतः परं संयुक्त गन्तव्यस्य विषयः सम्पादनीयः इति विचारं व्यनक्ति। झापा जनपदस्य बिरथामोड नगरे ह्य प्रारब्धां प्रदेशस्तरीय विज्ञान प्रविधेः प्रदर्शनीम् उद्घाटयन्ती पूर्व राष्ट्रपतिः भण्डारी जनस्तरे परिवर्तनस्य अनुभवनत्वेन कार्यकरणस्य आवश्यकतायां बलं प्रादात्। पूर्व राष्ट्रपतिः भण्डारी राज्यस्य पक्षतः विज्ञान प्रविधये गणित शिक्षायै च विशेष प्राथमिकतां प्रदाय अस्य क्षेत्रस्य विशेषज्ञानां ज्ञान शिल्पानुभवानां समुचित प्रयोगस्य आवश्यकता अस्ति इति प्रावोचत्। झापा जनपदस्य अर्जुनधारा नगरपालिकायाः एकादश वडा क्षेत्रस्य नमुना सामुदायिक वने विद्यमाने तडागे निमज्य ह्य प्रातः द्वौ बालकौ मृतौ स्तः।